अथ श्रीरमेशगीतिः जलचरतया ददौ वेदमादौ तरुणतरणिच्छवीर्यो विधात्रे शरणदमदोषमानन्दपूर्णं शरणमनिशं रमेशं प्रपद्ये अधृतसुमनो मनोवल्लभो यः कमठवपुषा महामन्दराद्रिम् शरणदमदोषमानन्दपूर्णं शरणमनिशं रमेशं प्रपद्ये जितदिति सुतो वराहो वरेण्यो धरणिमुदधादधीरां पुरायः शरणदमदोषमानन्दपूर्णं शरणमनिशं रमेशं प्रपद्ये दितिजगजराजविध्वंससिंहं प्रखरनखराख्यवज्रं नृसिंहं शरणदमदोषमानन्दपूर्णं शरणमनिशं रमेशं प्रपद्ये अनुजममराधिराजस्य बालं सितबलिबलं त्रिविक्रान्तिमन्तम् शरणदमदोषमानन्दपूर्णं शरणमनिशं रमेशं प्रपद्ये अवनिपवनानलं जामदग्न्यं गिरिशवरदायिनं रामदेवं शरणदमदोषमानन्दपूर्णं शरणमनिशं रमेशं प्रपद्ये दशमुखमुखद्विजाहारि मृत्युं दशरथसुतं पतिं भूमिजायाः शरणदमदोषमानन्दपूर्णं शरणमनिशं रमेशं प्रपद्ये मथितपृथिवीभरं वासुदेवं मधुरमधिकप्रियं पाण्डवानां शरणदमदोषमानन्दपूर्णं शरणमनिशं रमेशं प्रपद्ये असुरमनसां महामोहहेतुं विशदमनसां हितं बुद्धरूपं शरणदमदोषमानन्दपूर्णं शरणमनिशं रमेशं प्रपद्ये कलिकलिलकालवैकल्यमूलं कलितखलसङ्कटं कल्किदेवं शरणदमदोषमानन्दपूर्णं शरणमनिशं रमेशं प्रपद्ये अगणितगुणं गुणापेतमेकं विधिमुखविचिन्तितं ब्रह्मसंज्ञम् शरणदमदोषमानन्दपूर्णं शरणमनिशं रमेशं प्रपद्ये दशशततनुं तथाप्येकरूपं दशशततनुं तथानन्तरूपं शरणदमदोषमानन्दपूर्णं शरणमनिशं रमेशं प्रपद्ये लिकुचकविनन्दनः सन्नुपान्त्यो व्यदधदिति वै रमेशस्य गीतिम् शरणदमदोषमानन्दपूर्णं शरणमनिशं रमेशं प्रपद्ये इति श्रीमच्छङ्करपण्डिताचार्यकृता श्रीरमेशगीतिः।